इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। आदौ मुख्य वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी वाराणस्यां 50-300-600 कोटि रूप्यकाणां विविध परियोजनानाम् उद्घाटनं शिलान्यासम् अमृत भारत एक्सप्रेस इति रेलयानद्वयस्य ध्वजोत्तोलनेन सह शुभारम्भं च कृतवान्। वर्धमानस्य तापस्य उष्णतरंगस्य च प्रतिकूल प्रभावात् कर्मकराणां श्रमिकाणां च रक्षणाय सर्वकारेण राज्यानां केन्द्रशासित प्रदेशानां च कृते राष्ट्रव्यापि उष्णतरंग परामर्शः प्रसारित अस्ति। किर्गिस्तानस्य बिश्केक नगरे सांघाई सहकार संघटनस्य रक्षामन्त्रिमण्डले रक्षामन्त्री राजनाथ सिंहः अद्य आतंकवादं विरुध्य कठोर सञ्चेतनाम् अयच्छत्। आतंकवादस्य केन्द्राणि न्यायोचित दण्डात् मुक्तानि न सन्तीति सुदृढीकृतवान्। पश्चिम बंगाल राज्ये श्वः विधानसभा निर्वाचनस्य द्वितीयान्तिम चरणाय मतदानस्य कृते सर्वाः सज्जताः पूरिताः। अपि च आईपीएल क्रिकेट क्रीडायां पंजाब किंग्स दलम् अद्य सायंकाले न्यूचण्डीगढस्य मुल्लापुरे राजस्थान रॉयल्स दलं सम्मुखीकरिष्यति। प्रधानमन्त्री नरेन्द्र मोदी स्वकीयायां द्विदिवसीयायां यात्रायां उत्तरप्रदेशस्य वाराणसीनगरं सम्प्राप्तवान्। तत्र सः महिलासम्मेलनम् इति कार्यक्रमे भागं भजितवान्। सहैव 50-300-600 कोटि रूप्यकाणां विविध परियोजनानाम् उद्घाटनं शिलान्यासं च कृतवान्। प्रधानमन्त्री सहैव अमृत भारत एक्सप्रेस इति रेलयानद्वयस्य ध्वजोत्तोलनेन सह शुभारम्भं कृतवान्। एतयोः रेलयानयोः एकं रेलयानं बनारस नगरात् पुणे जनपदस्य हदस्प रेलस्थानकं यावत्, अपरं च अयोध्यातः समारभ्य मुम्बई नगरस्य लोकमान्य तिलक टर्मिनल्स स्थानकं प्रति गमिष्यतः। प्रधानमन्त्री नरेन्द्र मोदी अद्य गंगटोक नगरस्य पालजोर क्रीडांगणे 4,000 कोटि रूप्यकाणां बहुविध विकास परियोजनानां उद्घाटनं शिलान्यासं च कृतवान्। सः पूर्वोत्तर क्षेत्राणां कृते 6 क्रिकेट अकादमीनां घोषणामपि अकरोत्। सिक्किम राज्यस्य 50तमस्य राज्योत्सवस्य समापन समारोहे सः परियोजनानाम् उद्घाटनम् अकरोत्। जनसमूहं सम्बोधयन् श्रीमोदी पूर्वोत्तरं भारतस्य अष्टलक्ष्मी इति वर्णितवान्, तथा च एक्ट ईस्ट एक्ट फास्ट इत्यस्य प्रशासकीय संकल्पस्य उपरि अवधानमपि प्रदत्तवान्।
नॉर्थ ईस्ट ये हिंदुस्तान की अष्टलक्ष्मी है, इसलिए हम एक्ट ईस्ट की पॉलिसी पर तो काम कर ही रहे हैं। हमने नॉर्थ ईस्ट के लिए एक्ट फास्ट का संकल्प भी लिया है और इसलिए एक्ट ईस्ट एक्ट फास्ट आज भी यहाँ हजारों करोड़ रुपए की सेजा परियोजनाओं का लोकार्पण और शिलान्यास हुआ है। इनमें रोड, पावर, टूरिज्म, हेल्थ, एजुकेशन, हर तरह के प्रोजेक्ट शामिल है।
प्रधानमन्त्रिणा सिक्किम राज्यं पूर्वस्य स्वर्गमिति वर्णितम्, राज्यस्य बृहत्तमासु पर्यटन क्षमतासु बलं प्रदत्तम्। सः अवदत् यत् सिक्किम राज्ये मूलसौकर्याणां सम्पर्काणां च उन्नत्यै सर्वकारः सर्वोच्च प्राथमिकतां प्रददाति। प्रधानमन्त्री अवदत् यत् जैविक प्राकृतिक कृषि क्षेत्रे सिक्किम राज्यस्य साफल्यं देशस्य कृते आदर्शः अभवत्। अस्य अवसरस्य स्मरणार्थम् एकतायाः सहस्राणि सोपानानि इत्यनेन शीर्षकेन भव्यः सांस्कृतिकः कार्यक्रमः आयोजितः, यस्मिन् 1,500+ स्थानीय कलाकाराः सम्मिलिताः अभवन्। वर्धमानस्य तापस्य उष्णतरंगस्य च प्रतिकूल प्रभावात् कर्मकराणां श्रमिकाणां च रक्षणाय सर्वकारेण राज्यानां केन्द्रशासित प्रदेशानां च कृते राष्ट्रव्यापी उष्णतरंग परामर्शः प्रसारितः। नियोक्तृभ्यः अधिभोक्तृभ्यः उद्योगेषु निर्माणसंस्थासु च कर्मचारिणां कृते सुरक्षोपायानां तत्क्षणप्रभावेण कार्यान्वयनार्थम् आवश्यकानि निर्देशानि निर्दिशन्तु। श्रम आजीविका मन्त्रालयः श्रमिकाणां विशेषतः बाह्य श्रम गहन क्षेत्रयोः नियोजितानां संरक्षणार्थं समन्वितस्य बहु क्षेत्रीयस्य बहु आयामि दृष्टिकोणस्य आवश्यकतायाः विषये अवधानं प्रदत्तम्। मन्त्रालयः पर्याप्तमात्रायां पेयजलसुविधाः, विश्रामक्षेत्राणां व्यवस्थाः, कार्यस्थलानां शीतलीकरणं च सुनिश्चेतुम् आदिष्टवान्। कर्मचारिणां नियमितस्वास्थ्यपरीक्षणं सुनिश्चेतुं स्वास्थ्यविभागेन सह समन्वयं स्थापितुं च सूचिताः सन्ति। प्रियाः श्रोतारः, संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज़ ऑन एआईआर चलदूरभाषीयतन्त्रांशे अपि उपलब्धो भविष्यति। रक्षामन्त्री राजनाथसिंहः अद्य आतंकवादं विरुध्य कठोरसंचेतनाम् अयच्छत्। आतंकवादस्य केन्द्राणि न्यायोचितदण्डात् मुक्तानि न सन्तीति सुदृढीकृतवान् च। अवधेयं यत् किर्गिस्तानस्य विश्केक नगरे सांघाई सहकार संघटनस्य रक्षामन्त्री मण्डले सिंहवर्य सम्बोधयन् आसीत्। सः जम्मू कश्मीर राज्यस्य पहलगाम नगरे सद्यैव कृतस्य प्राणघातकातंक्याक्रमणस्य वार्षिकोत्सवम् अस्मारयत्। श्रीसिंहवर्यः अवदत् यत् आक्रमणस्य प्रतिक्रियारूपेण सिन्दूराभियानम् इत्यस्य समये भारतं स्वस्य दृढं संकल्पं प्रादर्शयत् यत् आतंकवादस्य केन्द्राणि न्यायोचित दण्डात् मुक्तानि न सन्ति।
ऑपरेशन सिंदूर के दौरान हमने यह स्पष्ट कर दिया कि आतंकवाद के केंद्र अब सजा पाने से किसी प्रकार से बच नहीं सकते। आतंकवाद और उसके समर्थकों के प्रति यह हमारे जीरो टॉलरेंस के दृष्टिकोण का प्रमाण था, जिसे इस प्रतिष्ठित मंच ने भी स्वीकार किया। हमें यह नहीं भूलना चाहिए कि आतंकवाद का न कोई देश होता है और न कोई धर्म। टेररिज्म और इनोसेंट ह्यूमैनिटेरियन लॉस के लिए कोई भी वजह, चाहे वह वास्तविक हो या काल्पनिक, जायज नहीं है।
रक्षामन्त्रिणा आतंकवादस्य, पृथक्तावादस्य, उग्रवादस्य च सुरक्षित आश्रयस्थानानां निर्मूलनार्थं राजनैतिक अपवादान् निराकृत्य च एकीकृत पक्षस्य आह्वानम् अकरोत्। सः सुदृढरूपेण अवदत् यत् राष्ट्रस्य सार्वभौमत्वस्य उपरि आक्रमणं कुर्वन्तं राज्यप्रायोजितस्य परिशीम्नः आतंकवादं विरुध्य समदृष्टिः भवेत्, यतः पृथग्दृष्ट्यै स्थानं नास्ति। पश्चिम बंगाल राज्ये श्वः विधानसभा निर्वाचनस्य द्वितीयान्तिम चरणाय मतदानस्य कृते सर्वाः सज्जताः पूरिताः सन्ति। अस्मिन् चरणे सप्तमण्डलानाम् आहत्य द्विचत्वारिंशोत्तरैकशत निर्वाचनक्षेत्रेषु मतदानं भविष्यति। आहत्य अष्टचत्वारिंशदधिक चतुश्शतोत्तरैकसहस्र प्रत्याशिनः नैर्वाचनिक समराङ्गणे सन्ति। तेषु विंशोत्तर द्विशतं यावत् महिलाः सन्ति। अस्मिन् चरणे विंशतिलक्षाधिक त्रिकोट्यधिकाः मतदातारः सन्ति, यस्मिन् सार्धैककोट्यधिकाः महिलाः, द्विनवत्यधिक सप्तशतं यावत् किन्नर मतदातारः च सन्ति। आरक्षकैः सुरक्षाभियानानि तीव्रीकृतानि सन्ति। ह्यः निर्वाचनमण्डलेषु अष्टशततोप्यधिकाः जनाः निगडिताः। अद्यावधि त्रयोविंशतिशतं यावत् जनानां निगडनम् अभवत्। स्वतन्त्रं शान्तियुतं च मतदानं सुनिश्चेतुं निर्वाचनायोगस्य निर्देशानुसारं कार्यं कुर्वन्तः आरक्षकाः अभिज्ञातानाम् उपद्रवीणां लक्ष्यीकुर्वन्तः सन्ति। केन्द्रीयसैनिकाः अपि मण्डलेषु निरीक्षणं, पथसञ्चलनं, निरीक्षणस्थानानां निरीक्षणं च वर्धितवन्तः। केन्द्रीय रेल सूचना प्रसारण मंत्री अश्विनी वैष्णव आन्ध्रप्रदेशस्य मुख्यमंत्री एन चन्द्रबाबू नायडू इत्यनेन सह सम्मिल्य अद्य विशाखापट्टनम नगरे गूगल क्लाउड इंडिया एआई हब इत्यस्य शिलान्यासं कृतवान्। कार्यक्रमत्रयाय उपस्थितं जनसमूहं सम्बोधयन् केन्द्रीय मंत्री अवदत् यत् देशस्य इलेक्ट्रॉनिक्स उत्पादनं, सेमीकंडक्टर उत्पादनं, उन्नत चिप विन्यासं, कृत्रिम बुद्धि प्रौद्योगिकीं च प्रति अग्रे गमिष्यति। मन्त्रिवर्यः अवदत् यत् प्रधानमन्त्रिणः नरेन्द्र मोदिनः मेक इन इण्डिया इति दृष्टिकोणम् अनुसरत् विश्वव्यापी, विश्वसनीयः च इलेक्ट्रॉनिक्स निर्माण सहभागी रूपेण भारतं द्रुतगत्या उद्भूतमस्ति। अन्त्यक्रीडावार्तायाम् आईपीएल क्रीडायां पंजाब किंग्स दलम् अद्य सायंकाले न्यू चण्डीगढ़स्य मुल्लापुरे राजस्थान रॉयल्स दलं सम्मुखीकरिष्यति। क्रीडायाः आरम्भः सायं सार्धसप्तवादने भविष्यति। इति वार्ताः।